ओम नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। ब्राह्मण उवाच। दुरत्यये ध्वन्यजया निवेशितो रजस्तमः सत्त्वविभक्तकर्मदृक्। स एष सार्थोऽर्थपरपरिभ्रमन् भवाटवीं याति न शर्म विन्दति। यस्यामिमे षण्णरदेवदस्यवः सार्थं विलुम्पन्ति कुनाय कम्बलात्। गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं मृकाः। प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः। क्वचित्तु गन्धर्वपुरं प्रपश्यति, क्वचित् क्वचिच्चासुरयोल्मुखग्रहम्। निवासतो यद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम्। क्वचिच्च वात्योत्थितपांसुधूम्रादिशो न जानाति रजस्वलाक्षः। अदृश्यझिल्ली स्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा। अपुण्यवृक्षान् शयते क्षुधार्तितो, मरीचितोयान्यभिधावति क्वचित्। क्वचिद्वितोया सरितोऽभियाति परस्परं चालशते निरन्धः। आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते, क्वच यक्षैरृतासुः शूरैरृतस्वः। क्वच निर्विण्णचेता शोचन् विमुह्यन्नुपयाति कश्मलम्। क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम्। चलन् क्वचित् कण्टकशर्कराङ्घ्रिर्नगारुरुक्षुर्विमनायिवास्ते। पदे पदेभ्यन्तरवन्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय। क्वचिन्निगीर्णो जगराहिना जनो न वैति किञ्चित् विपिनेपविद्धः। दष्टाश्मसेते क्वचदन्धशूकैरन्धोऽन्धकूपे पतितस्तमिश्रे। कर्हि स्म चित्क्षुद्ररसान् विचिन्वन् स्तन्मक्षिकाभिर्व्यथितो विमानः। तत्रातिकृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त शतं ततोऽन्ये। क्वचिच्च सीतातपवातवर्ष प्रतिक्रियां कर्तुमनीशास्ते। क्वचिन्मिथो विपणन् यच्च किञ्चित् विद्वेषमृच्छत्युत वित्तसाठ्यात्। क्वचित् क्वचित् क्षीणधनस्तु तस्मिन् सय्यासनस्थानविहारहीनः। याचन्परादप्रतिलब्धकामः पारक्य दृष्टिर्लभते वमानम्। अन्योन्यवित्तव्यतिसङ्गवृद्ध वैरानुबन्धो विवहन्मिथश्च। अध्वन्यमुस्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहरन् विपन्नः। तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातम् परिगृह्य सार्थः। आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम्। मनस्विनो निर्जितदिग्गजेन्द्राममेति सर्वे भुवि बद्धवैराः। मृधेशैरन्न तु तद्व्रजन्ति यन्यस्तदण्डो गतवैरोभियाति। प्रसज्यति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः। क्वचित् कदाचिद्धरिचक्रतस्त्र सन् सख्यम् विधत्ते बककङ्कगृध्रैः। तैर्वञ्चितो हंसकुलम् समाविशन्नरोचयन् शीलमुपैति वानरान्। तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परो द्वीक्षण विस्मृतावधिः। द्रुमे सुरंस्यन् सुतदारवत्सलो व्यवाय दीनो विवशस्वबन्धने। क्वचित् प्रमादात् गिरिकन्दरे पतन् वल्लीम् गृहीत्वा गजभीत आस्थितः। अतः कथञ्चित् स विमुक्तापदः पुनश्च सार्थम् प्रविशत्यरिन्दम। अध्वन्यमुस्मिन्न जया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन। रहूगणत्वमपि यद्ध्वनोऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः। असज्जितात्मा हरिसेवयाशितम् ज्ञानासिमादाय तरातिपारम्। राजोवाच। अहो नृजन्माखिल जन्मशोभनम् किम् जन्मभिस्त्वपरैरप्यमुस्मिन्। न यदृशी केशयशकृतात्मनाम् महात्मनाम् वः प्रचुरः समागमः। न हि यद्भुतम् त्वच्चरणाब्जरेणुभिर्हताम् हसो भक्तिरधोक्सजेमला। महूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोपहतो विवेकः। नमो महद्भ्योऽस्तु नमः शिशुभ्यो, नमो युवभ्यो, नम आवटुभ्यः। ये ब्राह्मणागामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम्। श्रीशुक उवाच। इत्येवमुत्तरा मातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वम् द्विगणयतः। परानुभावः परमकारुणिकतयोपदिश्य रहुगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकर्णोर्म्याशयो धरणिमिमाम् विचचार। सौवीरपतिरपि सुजनसमवगत परमात्मसतत्त्व आत्मन्यविद्याध्यारोपिताम् च देहात्ममतिम् विससर्ज। एवम् हि नृप भगवदाश्रिताश्रितानुभावः। राजोवाच। यो ह वा इह बहुविदा महाभागवत त्वयापि हितः परोक्षेण वचसा जीवलोक भवाद्ध्वास यार्यमनीषया कल्पित विषयो नाञ्जसा व्युत्पन्न लोकसमधिगमः अस तदेवैतद्दुरवगमम् समवेतानुकल्पेन निर्दिश्यतामिति। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे त्रयोदशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।